गीताशास्त्रमिदं पुण्यं या पठेत् प्रयता पुमान् विष्णुपदमवाप्नोति भयशोकादिवर्जिता। गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्म कृतानि च। मलिनैर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीताम्भसि स्नानं संसारमलनाशनम्। गीता सुगीता कर्तव्या किमन्ये शास्त्रविस्तरे। या स्वयं पद्मनाभस्य मुखपद्मात् विनिसृता भारतामृतसर्वस्वं विष्णुवक्त्रात् विनिसृतम्। गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते। सर्वोपनिषदो गावो दुग्धा गोपालनन्दन पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महान्। एकं शास्त्रं देवकी पुत्र गीतां एको देवो देवकी पुत्र एव। एको मन्त्रस्तस्य नामानि यानि कर्मापेकं तस्य देवस्य सेवा।